यदेह भवति राग द्वेष दोष प्रसूतिः कतर्दपि परेषां दूषणं नास्ति तत्र स्वयमयमपराधी तत्र सर्पत्यबोधो भवतु विदितमस्तं यात्वबोधोऽस्मि बोधः।